श्रीगुरुभ्यो नमः हरिः ॐ उदुत्यं जातवेदसं देवं वहन्ति केतवः द्रसे विश्वाय सूर्यम् अपत्येताय वो यथा नक्षत्रायं चक्तुभिः सूराय विश्वचक्षसे अत्र श्रमस्य केतवो विरस्मयोजना अनु व्राजन्तो अङ्ग्रयो यथा तरणिर्विश्वदर्शतो ज्योतिष्क्रदसि सूर्य विश्वमाभासिरोचनम् प्रत्ययं देवानां विशा प्रत्ययं नुदे श्रीमानुषान् प्रत्ययं विश्वस्वर्द्रसे येना पावकचक् च साभुरण्यन्तं जना अनु त्वं वरुण पश्यसि विद्या मे शिरजस्प्रत्वहामिमानो अक्तुभिः पश्यन् जन्मानि सूर्य हरिः ॐ
अथ सामवेदः ॐ वेओं मृज्यमानः शृण्व्यादिवे दिशं विसंहस सत्त्वा वाज्रेण सह सूर्या अनो विश्वे दिवे दिवे यज्ञभार स्याविश्वा आयुर्विश्वायुमारति महि प्रजा शतं शिर अक्रोधो मा अहिंसा ते स्यो हर्ष्यते
शुक्लयजुर्वेदः
हरि ॐ मा विष्णोर्लोकं वीर्जाणि पराभो चञ्जाः पार्थिवानि विमामे राजागुंसि जो अस्का भाया दुत्तारग्गुं साधस्तं बीचकरामाणस्त्रेधो रोगायो विष्णवेत्वा देवो वा विष्ण उता वा परेथिव्या माहो वा विष्ण उरोरन्तारिक्षात उभाहि हस्ता वासुना प्रेणस्वा परायच्छा दक्षिणादो तासव्याद्विष्णा वेत्त्वा प्रातद्विष्णुस्तावाते वीर्जेणा मृगो नाभीमः कुचारो गिरिष्ठाः जस्यो रोकुतरे कुब्यकरामाणे खुवाधिक्षेयन्ते भुवानानि विश्वा पूनस्त्वा द्वितीया रुद्रा वासावाः सामिन्धातां पुनर्ब्रह्माण वासुनेथा जग्नैः घृते नत्वन्तन्नवं वर्धायसु वा सत्याः सन्तु जाजामानस्या कामाः हरिः ॐ
अथ कृष्णयजुर्वेदः
ॐ तत्संयोरारुणीमहे गातुं यज्ञपदये दैवेष्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ओर्ध्वं जिगातु भेषजम् शन्नो अस्तद्विपदे षन् चतुष्पदे षन्नो मित्रः शं वरुणः षन्नो भवत्वर्यमा षन्न इन्द्रो बृहस्पतिः षन्नो विष्णुरक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्माशि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतो तद्वक्तारमवतो अवतु माम् अवतु वक्तारम् हरिः ॐ
अथ अथर्ववेदः
हरिः ॐ अस्मिन् वसो वशावोदारयन्त्विन्द्र ओषा वरुणो मित्र अग्निः इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तो अस्य देवा प्रदिशे ज्योतिरस्तु सूर्यो अग्निरुतवा हिरण्यम् सपत्ना अस्मदधरे भवन्तो तमं नाकमधीरोहयेमम् येनेन्द्राय समभरः पयास्युत् तमेन ब्रह्मणा जातवेदः तेन त्वमग्न इह वर्धयेमम् स दातानां श्रेष्ठ आधेह्येनम् येषां यज्ञमुत वर्चो दधेहम् प्रायस्पोषमुतचित् ग्ने सपत्ना अस्मदधरे भवन्तो तमं नाकमधीरोहयेमम् ॐ स्तुता मया वरदा वेदमाता प्रचोदयन्ताम् पावमानी द्विजानाम् आयुः प्राणम् प्रजाम् पशुम् कीर्तिम् द्रवीणम् ब्रह्मवर्जसम् मह्यम् दत्त्वा भ्रजत ब्रह्मलोकम् हरिः ओम्।